श्रीदेव्याः प्रातः स्मरणम्। चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्कचूडामणिं चारुस्मेरमुखां चराचरजग संरक्षणीं सत्पदां चञ्चलचम्पकनासिकाग्रविलस मुक्तामणिरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये। कस्तूरीतिलकाञ्चितेन्दुविलस प्रोद्भासि भालस्थलिं कर्पूरद्रवमिश्रचूर्णखदिरा मोदोल्लसद्वीटिका लोलापाङ्गतरङ्गितैरधिकृपा सारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये। श्रीमातरं भावये। श्रीमातरं भावये। इति श्रीदेव्याः प्रातः स्मरणं सम्पूर्णम्।